ब्रह्मितं तेजसां पुण्यं वायुराकाशमेव च ब्रह्मितं तेजसां पुण्यं वायुराकाशमेव च प्रियं च सर्वलोकानां तं सूर्यं प्रणमाम्यहम् तं सूर्यं प्रणमाम्यहम्।